ओम नमो भगवते वासुदेवाय। अथ षष्ठोऽध्यायः। सूत उवाच, एतन्निशम्य मुनिना पिहितं परीक्षित व्यासात्मजेन निखिलात्मदृशासमेन तत्पादमूलमुपसृत्य न तेन मूर्ध्ना बद्धाञ्जलिस्तमिदमाह सविष्णुरातः। राजोवाच, सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना, श्रावितो यच्च मे साक्षादनादिनिधनो हरिः, नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम्। अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः, पुराणसंहितामेतामश्रौ स्म भवतो वयम्। यस्यां खलूत्तमश्लोको भगवाननुवर्ण्यते, भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम्। प्रविष्टो ब्रह्मनिर्वाणमभयं दर्शितं त्वया, अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्यधोक्षजे। मुक्तकामाशयं चेतः प्रवेश्य विसृजाम्यसून्, अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया। भवता दर्शितं क्षेमं परं भगवतः पदम्। सूत उवाच, इत्युक्तस्तमनुज्ञाप्य भगवान् बादरायणिः जगामभिक्षुभिः साकं नरदेवेन पूजितः। परीक्षितपि राजर्षिरात्मन्यात्मानमात्मना समाधाय परं दध्यावस्पन्दासुर्यथा तरुः। प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्मुखः, ब्रह्मभूतो महायोगी निःसङ्गच्छिन्नसंशयः। तक्षकः प्रहितो विप्राः क्रुद्धेन द्विजसूनुना, हन्तु कामो नृपं गच्छन् तदर्शपथि कश्यपम्। तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम्, द्विजरूपप्रतिच्छन्नः कामरूपो दशनृपम्। ब्रह्मभूतस्य राजर्षेर्देहो हि गरलाग्निना, बभूव भस्मसात् सद्यः पश्यतां सर्वदेहिनाम्। हाहाकारो महानासीत् भुविखे दिक्षु सर्वतः, विस्मितायभवन् सर्वे देवासुरनरादयः। देवदुन्दुभयो ने दुर्गन्धर्वाप्सरसो जगुः, ववृषुः पुष्पवर्षाणि विभुधाः साधुवादिनः। जनमे जयस्वपितरं श्रुत्वा तक्षकभक्षितं, यथा जुहाव संक्रुद्धो नागान् सत्रे सह द्विजैः। सर्पसत्रे समिद्धाग्नौ दह्यमानान् महोरगान् दृष्ट्वेन्द्रं भयसंविघ्नस्तक्षकः शरणं ययौ। अपश्यन्स्तक्षकं तत्र राजा पारीक्षितो द्विजान्, उवाच, तक्षकः कस्मान्न दह्येतोरगाधमः। तं गोपायति राजेन्द्रशक्रः शरणमागतम्, तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ। पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः, सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते। तच्छ्रुत्वा जुहुर्विप्राः सहेन्द्रं तक्षकं मखे, तक्षकासु पतस्वेह सहेन्द्रेण मरुत्वता। इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः, बभूव सम्भ्रान्तमतिः सविमानः स तक्षकः। तं पतन्तं विमानेन सह तक्षकमम्बरात् विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः, नैष त्वया मनुष्येन्द्र वथमर्हति सर्पराट्, अनेन पीतममृतमथवा अजरामरः। जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्मणा, राजंस्ततोऽन्यो नान्यस्य प्रदाता सुखदुःखयोः। सर्पचौराग्निविद्युद्भ्यः क्षुत्रिड्व्याध्यादिभिर्नृप, पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म तत्। तस्मात् सत्रमिदं राजन् संस्थीयेताभिचारिकम्, सर्पा अनागतो दग्धा जनैर्दिष्टं हि भुज्यते। सूत उवाच, इत्युक्तः स तथेत्याह महर्षेर्मानयन् वचः। सर्पसत्रादुपरतः पूजयामास वाक्पतिम्, सैषा विष्णोर्महामाया बाध्यया लक्षणायया, मुह्यन्त्यस्यैवात्मभूता भूतेषु गुणवृत्तिभिः। न यत्र दम्भेत्यभया विराजिता मायात्मवादे सकृदात्मवादिभिः, न यद्विवादो विविधस्तदाश्रयो मनश्च सङ्कल्पविकल्पवृत्तियत्। न यत्र सृज्यं सृजतो भयोपरं श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहं, तदेतदुत्सादितबाध्यबाधकं निषिध्य चोर्मीन् विरमेत् स्वयं मुनिः। परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिशिक्षवः। विसृज्य सौरात्म्यमनन्य सहृदा हृदोपगुह्या वसितं समाहितैः तएतदधिगच्छन्ते विष्णोर् यत्परमं पदम् अहं ममेति दौर्जन्यं न येषां देहगेहजम् अतिवादांश्चितिक्षेत नावमन्येत कञ्चन न चे मम देहमाश्रित्य वैरं कुर्वीत केनचित् नमो भगवते तस्मै कृष्णाया कुण्ठमेधसे यत्पादाम्बुरुहध्यानात् संहिता मध्यगामि माम् शौनक उवाच पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभिः वेदाश्च कतिधा व्यस्ता एतत् सौम्याभिधेहिनः सूत उवाच समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः हृद्याकाशादभून्नादो वृत्तिरोधाद् विभाव्यते यदुपासनया ब्रह्मन् योगिनो मलमात्मनः द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ततो भूत्रिविदोऽङ्कारो यो व्यक्तप्रभवः स्वरात् यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक् येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः स्वधाम्नो ब्रह्मणः साक्षाद्वाचकः परमात्मनः स सर्वमन्त्रोपनिषद्वेदबीजं सनातनं तस्य यासंस्त्रयो वर्णा अकाराद्या भृगुद्वः धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तयः ततोऽक्षरसमाम्नायमसृजद् भगवानजः अन्तःस्थोऽस्म स्वरस्पर्श ह्रस्वदीर्घादिलक्षणम् तेनासौ चतुरो वेदान् चतुर्भिर्वदनैर्विभुः सव्याहृतिकान्सोङ्कारांश्चातुर्होत्र विवक्षया पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन् ब्रह्मकोविदान् ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः चतुर्युगेष्वथव्यस्ता द्वापरादौ महर्षिभिः क्षीणायुषः क्षीणसत्त्वान् दुर्मेधान् वीक्ष्यकालतः वेदान् ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतचोदिताः अस्मिन्नप्यन्तरे ब्रह्मन् भगवान् लोकभावनः ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये पराशरात् सत्यवत्या मनसां सकलया विभुः अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ऋगथर्वयजुः साम्नां राशीनुद्धृत्य वर्गशः चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव तासां स चतुरः शिष्यानुपाहूय महामतिः एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभुः पैलाय संहितामाद्यां बहुवृचाख्यामुवाचः वैशम्पायन संज्ञाय निगदाख्यं यजुर्गणम् साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे पैलस्वसंहितामूचे इन्द्रप्रमितये मुनिः बास्कलाय च सोऽप्याः शिष्येभ्यः संहितां स्वकाम् चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव पराशरायाग्निमित्रे इन्द्रप्रमितिरात्मवान् अध्यापयत् संहितां स्वां माण्डूकेयमृषिं कविम् तस्य शिष्यो देवमित्रः सौभर्यादिभ्य ऊचिवान् शाकल्यस्तत्सुतः स्वां तु पञ्चधा व्यस्य संहिताम् वाच्यमुद्गलशालीय गोखल्य शिशिरेष्वधात् जातु कर्ण्यस्य तच्छिष्यः सनिरुक्तां स्वसंहिताम् बलाकपैज वैताल विरजेभ्यो ददौ मुनिः बास्कली प्रतिशाखाभ्यो बालखिल्याख्य संहिताम् चक्रे बालाय निर्भज्यः कासारश्चैव तां दधुः बहुवृचाः संहिता येता एभिर्ब्रह्मर्षिभिर्धृताः श्रुत्वै तच्छन्दसां व्यासं सर्वपापैः प्रमुच्यते वैशम्पायन शिष्या वै चरकाध्वर्यवो भवन् यस्येरुर्ब्रह्म हत्याङ्गः क्षपणं स्वगुरोर्व्रतम् याज्ञवल्क्यस्य तच्छिष्य आहाहो भगवन् कियत् चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् इत्युक्तो गुरुरप्याह कुपितो याय्यलं त्वया विप्रावमन्त्राशिष्येण मदधीतं त्यजाश्विति देवरातसुतः सोऽपि छर्दित्वा यजुषाङ्गणम् ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान् यजोंसि तित्तिरा भूत्वा तल्लोलुपतया ददुः तैत्तिरिया इति यजुः शाखा आसन् सुपेशलाः। याज्ञवल्क्यश्च तो ब्रह्मन् छन्दांस्यधिगवेशयन् गुरोरविद्यमानानि सुपतस्थेर्कमीश्वरम्। याज्ञवल्क्य उवाच, ओम नमो भगवते आदित्यायाखिल जगतामात्मस्वरूपेण कालस्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्भपर्यन्तानामन्तर्हृदयेषु बहिरपि चाकाश इवोपाधिना व्यवधीयमानो भवानेक एव क्षणलवनिमेषावयवोपचित संवत्सरगणेनापामादान विसर्गाभ्यामिमां लोकयात्रामनुवहति। यदुहवाव विबुधर्षभ सवितरदस्तपत्यनुसवनमहरहराम्नाय विधिनोपतिष्ठमानानामखिल दुरितवृजिन बीजावभर्जन भगवतः समभिधीमहि तपनमण्डलम्। य इह वावस्थिरचरनिकराणाम् निजनिकेतनानाम् मन इन्द्रियासु गणाननात्मनः स्वयमात्मान्तर्यामी प्रचोदयति। य एवेमम् लोकमतिकरालवदनान्धकारसंज्ञा जगरग्रहगिलितम् मृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्या हर हरनुसवनम् श्रेयसि स्वधर्माख्यात्मावस्थाने प्रवर्तयत्यवनिपतिरिवा साधूनां भयमुदीरयन् नटति। परिताशापालैस्तत्र तत्र कमलकोशाञ्जलिभिरुपहृतार्हणः। अथः भगवंस्तव चरणनलिलयुगलं त्रिभुवनगुरुभिर्वन्दितमहमयात याम यजुः काम उपसरामीति। सूत उवाच, एवं सुतश्च भगवान् वाजिरूपधरो हरिः यजूंस्य यातयामानि मुनयेदात् प्रसादितः। यजुर्भिरकरोच्छाखा दश पञ्चशतैर्विपुः जगृहुर्वाजसन्न्यस्ताः काण्वमाध्यन्दिनादयः। जैमिनेः सामगस्यासीत् सुमन्तुस्तनयो मुनिः सुन्वांस्तुतस्तुतस्ताभ्यामेकैकाम् प्राह संहिताम्। सुकर्मा चापि तच्छिष्यः सामवेदतरोर्महान् सहस्रसंहिताभेदम् चक्रेषाम् नाम् ततो द्विजः। हिरण्यनाभः कौसल्यः पौष्यञ्जिश्च सुकर्मणः शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तमः। उदीच्यासामका शिष्या आसन् पञ्चशतानि वै पौष्यञ्जावन्त्ययोश्चापि तांश्च प्राच्यान् प्रचक्षते। लौकाक्षिर्माङ्गलिः कुल्यः कुसीतः कुक्षिरेव च पौष्यञ्जिशिष्या जगृहुः संहितास्ते शतं शतम्। कृतो हिरण्यनाभस्य चतुर्विंशति संहिताः शिष्यौ चे स्वशिष्येभ्यः शेषा आवन्त्य आत्मवान्। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादशस्कन्धे वेदशाखा प्रणयनम् नाम षष्ठोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।